गीता साधक संजीवनी आठवां अध्याय श्लोक 21 से अध्याय की समाप्ति तक।
वसुदेव सुतं देवं कंसचारुरमार्दनं देवकी परमानंदं कृष्णं वंदे जगद्गुरु।
अव्यक्तोऽक्षर इत्युक्त समाहो परमाङ्गतिं यं प्राप्य न निवर्तन्ते तद्धाम परमं मम पुरुषः स परः पार्थ भक्त्या लभ्यस्तनन्यया यस्यान्तस्थानि भूतानि येन सर्वमिदं ततं यत्र काले त्वनावृत्ति मा वृत्तिं चैव योगिना प्रयातायान्ति तं कालं वक्ष्यामि भरतर्षभ अग्निर्ज्योतिरः शुक्ल षण्मास उत्तरायणम् तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः धूमो रात्रिस्तथा कृष्ण षण्मास दक्षिणायनम् तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते शुक्लकृष्णे गतिषेते जगत शाश्वते मते एकयायात्यनावृत्ति मन्यया वर्तते पुनः नैते सिद्धि पार्थ जानां योगी मोह्यति कश्चन तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन वेदेषु यज्ञेषु तपसु चैव दानेषु यत्पुण्यभरं प्रदिष्टम् अतीति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति साध्यम् वेदेषु यज्ञेषु तपसु चैव दानेषु यत्पुण्यभरं अतीति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति साध्यम् योगी परं स्थानमुपैति साध्यम् ॐ तत्सत् शिवभगवद्गीतासूपनिषत्सूरविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नाम अष्टमः।
वसुदेव सुतं देवं कंसचारुरमार्दनं देवकी परमानंदं कृष्णं वंदे।